एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः अद्य संविधान दिवसः स्वास्थ्य मापदण्डम् परिपाल्य आराष्ट्रम् विविधैः कार्यक्रमैः सह समायोज्यमानो वर्तते उपलक्ष्यस्मिन् राष्ट्रपतिना विद्यादेवी भण्डारिणा शुभकामना सन्देशम् ददत्या इदानीम् राष्ट्रस्य सामाजिक न्याय सहितायाः आर्थिक समृद्धिर्दिशि अग्रे प्रवर्धनात्मकम् महद्दायित्वम् अस्माकम् स्कन्धे आगतमस्तीति उक्तम् वर्तते सन्देशे राष्ट्रपतिना जनतया राजनीतिकाधिकार प्राप्ताये विधातव्यस्य संघर्षस्य चरणः सम्पन्नोऽस्तीति हेतोः संविधानस्य मर्म भावने व्यवहारे रूपान्तरयितुम् मनोवचन कर्मभिः समर्पिततया स्वस्व पक्षतः निष्ठावन्तम् प्रयासम् सततम् चालयितुम् अपि सर्वे आहूताः सन्ति उपलक्ष्यस्मिन् प्रधानमन्त्रिणा केपी शर्मा ओलिना विशेष सम्बोधनम् विधीयते प्रधानमन्त्रिणा ओलिना एतदवसरे अद्य पूर्वाह्नस्य नववादने टुडीखेल वर्तिनी सैनिक मञ्चे समायोज्यमाने कार्यक्रमे सम्बोधनस्य कार्यक्रमः निर्धारितोऽस्तीति एतदीय संचार परामर्शदाता सूर्य थापा अज्ञापयत सम्बोधनस्य माध्यमेन प्रधानमन्त्रिणा स्वदेशे विदेशेषु च विद्यमानेभ्यो नेपालीभ्यः शुभकामना प्रदीयते इत्यतः विगतकाले इव पूर्वसन्ध्यायाम् प्रधानमन्त्रिणा लिखित शुभकामना प्रदानक्रमात् एतस्मिन् वर्षे कार्यक्रमः पृथक् भवतीति ज्ञापितम् वर्तते प्रधानमन्त्री केपी शर्मा ओली भाषते नेपालस्य संविधानस्य क्रियान्वयनस्य क्रमे आवश्यक विषयेषु संशोधनाय सर्वकारः तत्परो वर्तते संविधान दिवसस्य पूर्वसन्ध्यायाम् काष्ठमाण्डु स्कूल अफ ल शिक्षण संस्थया साउथ एशिया ट्रस्ट कोषेण च प्रकाशितम् अ स्ट्रेटेज अन द कन्स्टिट्यूशन अफ नेपाल नामकम् पुस्तकम् ह्यो बालवाटार स्थिते प्रधानमन्त्री निवासे लोकार्पयन् प्रधानमन्त्री ओली अवदत् विश्वस्मिन्नेव विश्वे तुलनात्मक रूपेण सम्भवतः अधिक मौलिकाधिकारणां विहित प्रबन्धनं नेपालस्य संविधानं एकं गतिशीलं प्राविलेखनं वर्तते प्रधानमन्त्री ओली कस्यापि परिभ्रान्तिमनुसृत्य संविधान संशोधनस्य कार्यसूची नानेतव्यति बलं ददत् अवोचत् राष्ट्रियतायाः प्रश्ने सर्वैः एकीभूय नेपालस्य नवीन राजनीतिक मानचित्रस्य द्वितीय संशोधनस्य माध्यमेन सर्वसम्मत रूपेण संयोजनस्य घटनया राष्ट्रियैकतायाः सन्धारणात्मकम् अवदानं सामर्थ्यं च संविधाने स्थिति स्पष्टी वर्तते कार्यक्रमे नेपाली कांग्रेस दलस्य नेता डाक्टर रामशरण महत अगदत् नेपालस्य संविधान मौलिक चरित्रयुतस्य न्यायपूर्णस्य समावेशिनस्य समाजस्य लक्ष्यम् केन्द्रीकृत्य आनीतमस्तीति हेतोः संविधानमेतत् विश्वस्य अन्येषाम् विकासोन्मुख राष्ट्राणाम् तुलनायाम् उत्कृष्टमस्ति नेपाले ह्य एकस्मिन् एव दिने सहस्रद्वयादपि अधिकेषु जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते संक्रान्तानाम् इयम् संख्या अद्यावधि सर्वाधिका अस्ति स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतम ह्य एकादश सहस्राणाम् शतचतुष्टयस्य पञ्चाशीतेश्च निदर्शनानाम् विहितेन परीक्षणेन षट्शतम् उनचत्वारिंशत् च महिलाः सहस्रम् शतत्रयम् एकाशीतिश्च पुरूषाश्चेति कृत्वा सहस्रद्वये विंशत्यांश जनेषु कसंक्रमणम् पुष्टीभूतम् अस्तीति अज्ञापयत् काष्ठमण्डप उपत्यकायाम् ह्य अष्टौशतम् उनषष्टिश्च नूतन संक्रान्ताः जनाः वर्धिताः सन्ति एतदनन्तरम् कोरोना संक्रान्तानाम् जनानाम् नेपाले अद्यावधि समग्र संख्या एकषष्टिः सहस्राणि पञ्चशतम् त्रयोनवतिश्च प्राप्तास्ति तेषु त्रयश्चत्वारिंशत् सहस्राणि अष्टशतम् विंशतिश्च जनाः संक्रमणात् मुक्ताः सन्ति गतदिने अष्टशतम् एकसप्ततिश्च जनाः संक्रमण मुक्ताः वर्तन्ते कोरोना संक्रमणेन गतदिने महिलाद्वयम् पञ्चपुरूषाश्चेति कृत्वा सप्तजनाः मृताः सन्ति अद्यावधि नेपाले कोरोना संक्रमणेन मृतानाम् जनानाम् समग्र संख्या शतत्रयम् नवतिश्च प्राप्ता अस्ति स्वास्थ्य जनसंख्या मन्त्रालयेन काष्ठमण्डप उपत्यका प्रवृत्तिषु सघनवसतियुत नगरेषु कोरोना संक्रमणम् अत्यधिकम् वर्धमानमस्तीत्यतः षष्टिवर्षेभ्यः अधिकवयस्काः जनाः अत्यावश्यक कार्येण विना गृहात् बहिः न निष्क्रान्तम् अनुरुद्धाः सन्ति मन्त्रालयस्य प्रवक्ता डाक्टर गौतम उक्त उच्च रक्तचाप मधुमेह प्रवृत्ति दीर्घ रोगयुत व्यक्तिः श्वास प्रश्वासयो समस्यायुत व्यक्तिश्च कतिचित् दिनानि सुरक्षित रूपेण गृहस्य अभ्यन्तरे एव स्थातुम् गृहाद् बहिः आगमनस्य अत्यावश्यकायाम् अवस्थायाम् अनिवार्य रूपेण जनस्वास्थ्य सुरक्षायाः मापदण्डान् पालयितुम् च अन्वरुणत् पूर्व राष्ट्रपति डाक्टर रामवरण यादव संविधानस्य क्रियान्वयनस्य सन्दर्भे लोकतन्त्रस्य मर्म संविधानस्य भावनाञ्च ध्यात्वा कार्याणि विधातुं विधायिकायै सर्वकाराय राजनीतिक दलेभ्यश्च परामृशति। संविधान क्रियान्वयनस्य पञ्चानां वर्षाणां पूरणस्य अवसरे संविधान दिवसे सामयिक विषये च केन्द्रीभूय भाषमाणः पूर्व राष्ट्रपतिः यादवः जनतायाः महता संघर्षेण बलिदानेन च संविधान सभातः संघीय लोकतान्त्रिक गणतन्त्रेण सहितस्य संविधानस्य क्रियान्वयनं सफलं सम्भूतमस्तीति विचारं व्यक्तवान्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा भासते कांग्रेस दलस्य संस्थापक नेता गणेशमान सिंह नेपाली राजनीतेः शिखर पुरुषो वर्तते। नेतुः गणेशमान सिंहस्य त्रयोविंशस्य स्मृति दिवसस्य अवसरे ह सभापति देउवा अवोचत् गणेशमान सिंह एक यथार्थ क्रान्तिकारी नेता आसीत्। कार्यक्रमे कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल अगदत् गणेशमान सिंह त्याग बलिदानस्य प्रतिमूर्तिः समेषां प्रेरणायाः अजस्र स्रोतश्च आसीत्। परराष्ट्र मन्त्री प्रदीप कुमार ग्यवाली भासते भारतेन सह कूटनीतिक संवादं विमर्शनञ्च विधाय एव सीमा समस्या समाधास्यते। रूपन्देही वर्तिना प्रेस संघटनेन ह्य आयोजिते पत्रकार सम्मेलने मन्त्री ग्यवाली नेपालः कमपि प्रतिवेशी देशं प्रति नतो न भविष्यतीति स्पष्टीकुर्वन् सीमा समस्या समाधान प्रवृत्तिषु विषयेषु प्रधानमन्त्री स्तरे भारतेन सह वारचतुष्टयं दूरभाष संवादः सम्भूतो वर्तते इति अज्ञापयत्। परराष्ट्र मन्त्री ग्यवाली अब्रवीत् एमसीसी संविधायाः विषये अमेरिका सर्वकारे स्पष्टीभूते सति संविधा अनुमोदिष्यते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयस्य ह्य निर्धारित उपवेशा स्व रविवासरे बस्ता। दल सचिवालय उपवेशा स्व रविवासरे पूर्वाह्नस्य एकादश वादने पेरिस टाँडा स्थाने बस्तेति नेकपा दलस्य प्रवक्ता नारायण काजी श्रेष्ठः अज्ञापयत्। प्रतिनिधि सभायाः राज्यव्यवस्था सुशासन समित्या विपदो घटनानां कारणेन विस्थापितानां सर्वेषां नागरिकाणां मासषड्कस्य अभ्यन्तरे पुनःस्थापनं पूरयितुं सर्वकारः निर्दिष्टो वर्तते। समिते ह्य उपविष्टेन उपवेशेन भूगर्भिकम् अध्ययनं विधाय भूपयोगनीतेः अनुसारेण एतादृशानां जनानां पुनर्वासस्य व्यवस्थां विधातुं गृहमन्त्रिणः माध्यमेन सर्वकारः निर्दिष्टो वर्तते। गृहमन्त्रिणः रामबहादुर थापा विदस्य उपस्थितौ सम्पन्नेन तेनोपवेशेन राज्यस्य सर्वेषां निकायानां समन्वयेन नागरिकाणां कृते आवश्यक वस्तुसेवाः सहजरूपेण प्रदातुमपि निर्दिष्टमस्ति। विश्वकोषागारेण नेपालाय वित्तीय क्षेत्रस्य सुधाराय त्रयोविंशते अब्जानां षष्टि कोटीणां च रूप्यकाणां ऋण सहयोगः प्रदास्यते। कोविड उनविंशतेः महामार्याः कारणेन उत्पन्नं सामाजिकार्थिक समाभयं प्रतिकर्तुं नेपाल सर्वकारेण अग्रसारेतानां वित्तीय क्षेत्रस्य सुधारस्य सबल योजनानां क्रियान्वयनाय विश्वकोषागारेण रूप्यकाणि इमानि ऋण स्वरूपेण प्रदास्यन्ते। जनकपुर जयनगर स्थानयोः सञ्चालनाय रेलयानद्वयं ह्यो जनकपुर धामनी प्राप्तमस्ति। भारतस्य कोकान रेलवेज कर्पोरेशन लिमिटेड नामकेन सर्वकारीय संस्थानेन रेलयानद्वयं जनकपुर रेल विश्रान्तिस्थले आनीतमस्तीति नेपाल रेलयान विभागस्य वरिष्ठ महाशाखीय अभियन्ता देवेन्द्र प्रसाद शाह अज्ञापयत्।